सर्वेभ्यः अद्य शिक्षा वर्गस्य द्वितीयः पाठः जून् मासस्य द्वितीयः दिनाङ्कः प्रार्थनया आरम्भं कुर्मः। गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गस्य किञ्चित् पुनरावर्तनं कृत्वा अग्रे सरामः। गतवर्गे वयं काव्यांशेषु वाक्येषु अन्वयरचना कथं भवति आकाङ्क्षाक्रमेण इति ज्ञातवन्तः। एवं प्रहेलिकाम् एकां लौत्कन्यायद्वयं च पठितवन्तः। तत्र अन्वयरचना आकाङ्क्षाक्रमे तत्र कः क्रमः, आदौ क्रियापदं किम् इति पश्यामः, ततः प्रश्नद्वारा अन्येषां पदानाम् अन्वयं कुर्मः। कारकाणि भवन्ति, षट् कारकाणि सन्ति, कर्ता कर्म करणं संप्रदानम् अपादानम् अधिकरणम् इति। एतेषाम् अन्येषां च पदानाम् अन्वयः क्रियते। कीदृशाः प्रश्नाः पृच्छ्यन्ते इत्यपि दृष्टवन्तः। विभक्तिम् आश्रित्य कः करोति, किं करोति, केन करोति, कस्मै ददाति, कस्मात् आगच्छति, कस्य इदं, कस्मिन् करोति, एवं क्रियायाः सम्बन्धे प्रश्नाः क्रियन्ते। अन्ये प्रश्नवाचकाः शब्दाः कुत्र, कदा, कति, कुतः, एतानि अपि उपयोक्तुं शक्यन्ते। विशेषणं यत्र भवति तत्र कीदृशशब्देन प्रश्नः क्रियते। कीदृशः, कीदृशी, कीदृशं, लिङ्गत्रये अपि विशेष्यस्य लिङ्गम् आश्रित्य कीदृशशब्दम् उपयुज्य प्रश्नः क्रियते। यत्र उपवाक्यानि सन्ति यथा क्त्वा, तुमुन् इत्यादि मध्ये अन्याः क्रियाः अपि सन्ति, तत्र किं कृत्वा, सः पाठं पठित्वा निद्रां करोति, तर्हि किं कृत्वा निद्राति इति, अथवा किमर्थं, तुमुन्नन्तस्य प्रश्नः किमर्थं, सः पठितुं शालां गच्छति, सः किमर्थं गच्छति इति, अथवा कीदृशं तु पूर्वमेव उक्तम्, किं कर्तुम् इत्यपि वक्तुं शक्यते। सो इन्स्टेड् आफ् किमर्थं यू केन् आल्सो यूस् किं कर्तुं, किं कर्तुं शालां गच्छति, किं कृत्वा किं कर्तुम् इति उपयोक्तुं शक्यते। सो एतावत् सर्वम् अधीतम्। कश्चन अभ्यासः दत्तः आसीत्। सो देर् वास् वन् एक्सर्सैज् विच् वास् अप्लोडेड् इन् आर् पोर्टल्. So I hope you are all able to see it. Kechana abhyasa patram api preshitavantaha. Maya tu samayasya abhavena tat patram drashtum na shaktam. Kintu idaniyam uttaranam charcham kurmaha. So you'll be able to evaluate yourself and correct it. Tana nantaram api prashnaha santite prachyantu vadami. तत्र ये वक्तुम् इच्छन्ति कृपया हस्तम् उन्नयन्तु, अहं क्रमशः पृच्छामि। प्लीज़ रेज़ योर हैंड्स इफ यू वुड लाइक टू आंसर। देवनाथन्,
अत्र क्रियापदम् उपदिष्टवान् कः उपदिष्टवान्? श्रीकृष्णः उपदिष्टवान्. कीदृशः श्रीकृष्णः? भगवान् श्रीकृष्णः.
उत्तमम्.
कम् उपदिष्टवान्? गीतम् उपदिष्टवान्.
काम् उपदिष्टवान्?
काम् उपदिष्टवान्. गीतम् उपदिष्टवान्?
गीताम्
उपदिष्टवान्. कस्मै उपदिष्टवान्? अर्जुनाय उपदिष्टवान्.
सम्यक्, उत्तमम्. अग्रिमं पश्यामः. शर्मा महोदय.
क्रियापदं गच्छामः. के? वयं गच्छामः. किं गच्छामः? गणेशमन्दिरं गच्छामः. कीदृशं गणेशमन्दिरं? विद्यमानं गणेशमन्दिरं. कुतः विद्यमानं? समीपे विद्यमानं. कस्मात् गच्छामः? गृहात् गच्छामः.
कः इति उक्तं वा? समीपे इत्यस्य कः प्रश्नः आसीत्? समीपे इत्यस्य
कुतः?
कुत्र?
कुत्र विद्यमानं? समीपे विद्यमानं. कस्मात् गच्छामः? गृहात् गच्छामः. कदा गच्छामः? प्रतिदिनं गच्छामः.
सम्यक्. सो गृहाद् इत्यस्य गृहात् गणेशमन्दिरं गच्छामः इति अन्वयः स्वीकृतः भवितुम् अर्हति. कुतः कस्मात् गच्छामः? गृहात् गणेशमन्दिरं गच्छामः इति मम विवक्षा आसीत्. गृहात् समीपे इति. कस्मात् समीपे? गृहात् समीपे इति. सो एस् यु केन् सी बोत् वेज़् आर् करेक्ट्. देर् इस् नथिङ्ग् राङ्ग्. धन्यवादाः महोदय. सो उभयथापि वक्तुं शक्यते. कदा? प्रतिदिनम्. स्पष्टम् इति भावयामि. अग्रिमं वाक्यं. त्वम् अग्रजस्य द्विचक्रिकया शालाम् आगतवती. अविनाश् वैद्य.
आगवती इद क्रिया.
आगतवती
इति क्रियापद्. क आगतवती? त्वं कर्ता.
त्वम् आगतवती. सम्यक्.
त्वम् आगतवती इद कर्ता. ओके. देन् काम् आगवती? शालाम् आगवती. कया आगवती? द्विचक्रिकया आगवती.
आगतवती.
कया आगतवती? द्विचक्रिकया आगतवती. दट् इस् अ करणम्.
सम्यक्.
कस्य द्विचक्रिकया? अग्रस्य.
अग्रजस्य द्विचक्रिका.
अग्रजस्य द्विचक्रिका.
सम्यक्, उत्तमम्. अत्र कश्चन प्रश्नः द्वितीय वाक्यस्य विषये. विद्यमानं. विद्यते इस् अस्ति. सो विच् ईस् नियर् होम् इत्यर्थः. सो विद्यमान इस् प्रसेण्ट्. विच् इस् देर् इत्यर्थः. विद्यते अस्ति इत्यस्य पर्यायः. अत्र अपरः प्रश्नः अस्ति. ओके. सो सेवरल् क्वश्चन्. सो विल् टेक् अ ब्रेक् हियर् अण्ड् आन्सर् देम्. सो अत्र असि इति अध्याहार्यं न वा इति प्रश्नः. सो अत्र प्रथमवाक्ये अपि एवं तृतीयवाक्ये अपि सो प्रश्नस्य मूलमस्ति. सो अकार्डिङ्ग् टु the grammar, so it is only a tinganta which is the pradhana kriya. Okay. So no sentence is complete without a tinganta. So sarveshu vakyeshu tingantam bhavedeva. Yatra tingantam nasti tatra kriyapadasya tingantasya adhyaharaha kriyate. Udaharanartham saha vrikshaha iti ukte. Saha vrikshaha asti. अस्ति. कः अस्ति? वृक्षः अस्ति. एवमेव वस्तुतः यत्र कृदन्तम् उपयुज्यते एवम् आगतवती उपदिष्टवान् इत्यादि तत्रापि अस्ति इत्यादि तिङन्तस्य अध्याहारः करणीयः. सो टेक्निकलि इट् इस् करेक्ट् बट् अद्यतनव्यवहारे भूतकृदन्तान् वयं तिङन्तस्य स्थाने एव उपयोगं कुर्मः. सो वि यूस् इट् इन् द प्लेस् आफ् तिङन्त. उपदिष्टवान् इत्युक्ते तिङन्तेन उपादिशत् इति लङ्लकारस्य तिङन्तेन यः अर्थः स एव अर्थः स्वीक्रियते. अतः तदेव क्रियात्वेन स्वीकृतम्. सो इन् दिस् केस् वि आर् टेकिङ्ग् द भूतकृदन्त एस् द क्रिया. अतः असि इत्येतत् नोक्तम्. सो क्रियते चेत् दोषः नास्ति, न क्रियते चेदपि अस्य विषये चिन्ता नास्ति. सो इन् संस्कृतभारत्याः क्रमे आरम्भतः अपि भूतकाले कृदन्तानाम् एव उपयोगः क्रियते. अतः तदेव क्रियापदत्वेन स्वीकृत्य वयं कुर्मः. सो इन् दीस् लेसन्स् वी विल् यूस् दट् एस् द क्रियापद. सो वि शुड् नो दट् यस् इट् इस् नाट् अ कम्प्लीट् क्रियापद. तिङन्त इस् अ क्रियापद. सो उपदिष्टवान् आसीत्, आगतवती आसीः. सो मे बी इन् द पास्ट् टेन्स् आर् द प्रेसेण्ट् टेन्स् इट् इस् जस्ट् अ अध्याहार विच् वास् विच् केन् बी डन्. What would be the question for vidyamanam? So, kīdrisham. Vidyamanam iti Ganesha Mandirasya Visheshanam. Ataha kīdrisham iti prashnaha bhavati. Kīdrisham Ganesha Mandiram vidyamanam. Kutra vidyamanam, samīpe vidyamanam iti. Agre gacchamaha. Chaturtham vakyam. Jaya Kumar Maharaya.
नमस्कारः. श्रूयते वा?
हा श्रूयते.
अत्र कृदन्तः अस्ति, सन्तुष्टाः. के सन्तुष्टाः? अतिथयः सन्तुष्टाः. किं कृत्वा अतिथयः सन्तुष्टाः? भुक्त्वा अतिथयः सन्तुष्टाः.
सम्यक्.
कानि भुक्त्वा अतिथयः सन्तुष्टाः? आम्रफलानि भुक्त्वा अतिथयः सन्तुष्टाः. कीदृशानि आम्रफलानि भुक्त्वा अतिथयः सन्तुष्टाः? अतिमधुराणि आम्रफलानि भुक्त्वा अतिथयः सन्तुष्टाः.
सम्यक्, उत्तमम्. अग्रिमं वाक्यं लता शेखरन्.
श्रूयते वा?
अद्य श्रूयते.
भगिनि, ऐ डोण्ट् नो वेदर् ऐ एम् रैट्, सो ऐम् जस्ट् गोयिङ्ग् टु रीड् वाट् एवर् ऐ रो. प्रस्थितौ क्रियापदम्. कौ प्रस्थितौ? सुदक्षिणा दिलीपौ. किं कृत्वा प्रस्थितौ? आरुह्य प्रस्थितौ. कम् आरुह्य? रथम् आरुह्य. कीदृशं रथम्? उत्तमं रथम्. किमर्थं प्रस्थितौ? दर्शनार्थम्. कस्य दर्शनार्थं? वसिष्ठस्य.
सम्यक्.
Okay. In the previous one, I wrote Bhavanti as Kriyapadam.
Tadeva. Atra yatra yatra atrapi prasthitau ityatrapi. You have to use Asti or Bhavati. Or you can also do without it. As I said, with Bhutakradantas, with Tavatu and Kta. Normal practices, we use it directly as the Kriyapada. Using Bhavati or this is not wrong.
But how do you then santushtaham? I said bhavanti kriya padam. Ke bhavanti atitayaha? Katam bhavanti santushtaha bhavanti? Is that okay?
भवन्ति यस् भवति
ओ
कीदृशः भवन्ति
धन्यवादः धन्यवादः
अग्रिमम् पद्मनाभन्
नमस्ते न ब्रूयात् सत्यम् अप्रियम् ब्रूयात् क्रियापदम्
न ब्रूयात्
I was going to say that there is an avyaya न ब्रूयात्
But the whole kriya, the kriya gets
negated, therefore na bruya.
Complete only with the na.
Kim na bruya? Apriyam. Apriyam na bruya. Satyam apriyam.
Satyam na bruya. कीदृशं सत्यं न ब्रूयात् अप्रियं सत्यं न ब्रूयात् सो द थिङ्ग् इस् यु शुड् नाट् टेल् अ ट्रूत् विच् इस् अन्प्लेसेण्ट् सो सत्यम् इति विशेष्यम् अप्रियं विशेषणम् कीदृशं सत्यं न ब्रूयात् अप्रियं सत्यं न ब्रूयात् सो ब्रूयात्
अप्रियम् इस् विशेषणं फर् सत्यम्
सत्यम् सो ब्रूयात् इत्यस्य वक्तव्यम् इत्यर्थः वदेत् इति सो न ब्रूयात् वन् मस्ट् नाट् से सो वाट् मस्ट् वन् नाट् से ट्रूत् विच् इस् अप्रिय सो न ब्रूयात् किं न ब्रूयात् सत्यं न ब्रूयात् कीदृशं सत्यं न ब्रूयात् अप्रियं सत्यं न ब्रूयात् सो ब्रूयात् इति विधिलिङ्ग् लकारः सो इट् इस् अ लकार विच् इस् यूस्ड् इन् सेन्स् आफ् विधि समथिङ्ग् दट् मस्ट् बी डन् शुड् बी डन् एट्सेट्रा अग्रिमं वाक्यं राम रामानुजन्
धन्यवादः बालं मुकुन्दं मनसा स्मरामि स्मरामि इस् क्रियापदम् कः स्मरामि अहम् किं स्मरामि
कं
स्मरामि मुकुन्दं स्मरामि कीदृशं मुकुन्दं बालं मुकुन्दं केन स्मरामि मनसा स्मरामि
सम्यक् उत्तमं बालं मुकुन्दं मनसा स्मरामि सो ऐ रिमेम्बर् वित् मै मैण्ड् द हार्ट् द चैल्ड् मुकुन्द इत्यर्थः रामकृष्णराव्
धर्मो रक्षति रक्षितः रक्षितः इति क्रियापदम्
रक्षति इति क्रियापदम्
रक्षति
व्हेनेवर देयर इज अ तिङन्त तिङन्त हैज टू बी द मेन क्रियापदम्
रक्षति क्रियापदम् किं रक्षति धर्मं रक्षति रक्षितः कां रक्षति वयं रक्षितः
कः रक्षति धर्मः रक्षति कीदृशः धर्मः रक्षति रक्षितः धर्मः रक्षति रक्षितः इति सम्यक् धर्मः इत्यस्य विशेषणम् नार्मल् रूल् इस् इफ् इट् इस् इन् द सेम् विभक्ति most likely that it will be the visheshana and visheshya okay so rakshitah iti prathama vibhakti ధర్మః ఇస్ ప్రథమ విభక్తి. సో దేర్ ఇస్ విశేషణ విశేష్య. కహ అర్థః వాక్యస్య రక్షితః ధర్మః రక్షతి. రక్షితః ధర్మః, ధర్మ విచ్ ఇస్ ప్రొటెక్టెడ్ విల్ ప్రొటెక్ట్ అస్ ఆర్ ఎనీబడి. సో ఇఫ్ వి ప్రొటెక్ట్ ధర్మ, ధర్మ విల్ ప్రొటెక్ట్ అస్. దట్ ఇస్ ద మీనింగ్ ఆఫ్ ద సెంటెన్స్. ధర్మో రక్షతి రక్షితః ఇత్యస్య కహ అర్థః. రక్షితః ధర్మః, అస్మాభిః రక్షితః ధర్మః అస్మాన్ రక్షతి. అర్థాత్ వయం ధర్మం రక్షామః చేత్ ధర్మః అస్మాన్ రక్షతి ఇత్యర్థః. సో తత్ర రక్షితః ఇతి ధర్మస్య విశేషణం. రక్షితః ధర్మః రక్షతి. అత్ర పూర్వతనవాక్యస్య విషయే ప్రశ్నః పృష్టః. మనసా స్మరామి ఇత్యత్ర కయా స్మరామి ఇతి భవతి వా ఇతి. మనశ్శబ్దః నపుంసకలింగే. మనః మనసి మనాంసి తస్య తృతీయా విభక్తిః మనసా. అతః కేన స్మరామి ఇత్యేవ ప్రశ్నః. కయా స్మరామి ఇతి న భవతి. సులోచన సారీ సుధా భగిని. సుధా
నమోస్తు రామాయ స లక్ష్మణాయ. నమః అత్ర అస్తి. నమః ఇతి అస్తు, సారీ క్షమ్యతాం, అస్తు క్రియాపదం అస్తి.
సమ్యక్.
కస్మై నమః అపి అస్తి. కస్మై నమః రామాయ నమః. పునః కస్మై నమః స లక్ష్మణాయ నమః.
కీదృశాయ రామాయ. సో ఇట్ ఇస్ నాట్ లక్ష్మణాయ చ. ద మీనింగ్ ఇస్ సలక్ష్మణ మీన్స్ అలాంగ్ విత్ లక్ష్మణ. సో సాల్యుటేషన్ నమస్కార టు రామ హూ ఈజ్ అలాంగ్ విత్ లక్ష్మణ. సో సలక్ష్మణాయ ఇది రామస్య విశేషణం. సో సమ్యక్. అస్తు కహ కిం అస్తు నమః అస్తు. సో వెన్ యు సే నమోస్తు, సో తత్ర అస్తు ఇత్యత్ర నమః ఇత్యేవ కర్తృపదం భవతి. అతః అస్తు ఇతి క్రియాపదం. కిం అస్తు నమః అస్తు. కస్మై నమః రామాయ నమః. కీదృశాయ రామాయ సలక్ష్మణాయ రామాయ నమః. So if we have only namaha as the kriya pada, say, where there is no asti, let's say krishnaya tasmai namaha, okay, so in those cases also it is preferable to say namaha asti or astu. That is the kriya pada. So namaha is not a kriya pada by itself. Ataha namaha asti. So if we just say namaha, like sahavrikshaha means sahavrikshaha asti. So if we say krishnaya namaha, so krishnaya namaha asti iti kriya padam. So agrimam vakyam venkata satyanarayana, you have to unmute yourself. Microphone chinham bhavati tatr click krutva అన్మ్యూట్ కరణీయం. తదైవ శ్రోతుం శక్నుమ. సత్యనారాయణ మహోదయ, కెన్ యూ ట్రై అన్మ్యూటింగ్ యువర్ సెల్ఫ్? శ్రూయతే అగ్రే. శేఖర్ పాండ్యరామ్ మహోదయ, సో యూ ఆల్సో నీడ్ టు అన్మ్యూట్ యువర్ సెల్ఫ్. యూ హావ్ టు క్లిక్ ఆన్ ద మైక్రోఫోన్ ఐకన్ టు అన్మ్యూట్ యువర్ సెల్ఫ్. నో,
శరీర శోషణం.
శరీరం దేహః, Shoshanam, that which dries up the body, that which torments the body.
Sharira Shoshanam Karma Padam?
Kriya Padam. No, Kartra Padam.
Kartra Padam. Naam etat vakyasya artham na gyayami. Chinta samam nasti iti janami. Chinta samam.
Chinta samam Sharira Shoshanam nasti. So there is nothing which wastes the body or troubles the body like chinta. Like worries. इदानीं प्रयत्नं करोतु नास्ति इति क्रियापदम् किं नास्ति
शरीरशोषणं
कीदृशं शरीरशोषणं नास्ति चिन्ता समं शरीरशोषणं नास्ति अग्रिमं वाक्यम् एनिबडी हू हैज नॉट अटेम्प्टेड सो फार शोभा मादि
अत्र विरमन्ति इति क्रियापदम् न विरमन्ति के न विरमन्ति कीराः न विरमन्ति तस्मात् न विरमन्ति निश्चितार्थात् न विरमन्ति
सम्यक् सो धीराः निश्चितार्थात् न विरमन्ति सो धीराः सो ब्रेव् करेजियस् पीपल् दे डू नाट् स्टाप् आर् गिव् अप् फ्रम् वाट् एवर् हेस् बीन् डिसैडेड् निश्चितार्थात् सो वन्स् दे डिसैड् टु डू समथिङ्ग् दे डू नाट् गिव् अप् न विरमन्ति इत्यर्थः विरमन्ति के न विरमन्ति धीराः न विरमन्ति कस्मात् न विरमन्ति निश्चितार्थात् न विरमन्ति अन्ये केऽपि वक्तुमिच्छन्ति बहु लाट् आफ् डिस्टर्बेन्स् वेङ्कटेशन् महोदय सो लाट् आफ् बेक्ग्रौण्ड् नाय्स् सारी वि आर् नाट् एबल् टु हियर् ವೇಣು
ನಮಸ್ಕಾರ ಕ್ರಿಯಾಪದಂ ಗಚ್ಚತಿ ಕೇನ ಗಚ್ಚತಿ ಕಾವ್ಯಶಾಸ್ತ್ರ ವಿನೋದೇನ ಕಾಂ ಗಚ್ಚತಿ ಧೀಮತಾಂ ಗಚ್ಚತಿ
केषां
कुत्र गच्छति कालो गच्छति
काले इट् इस् नाट् कालः इस् द कर्तृपद कः गच्छति वाट् गोस् टैम् गोस् कालः गच्छति कालः इस् टैम् सो टैम् इस् स्पेण्ट् इत्यर्थः टैम् गोस् केन कालः गच्छति काव्यशास्त्र विनोदेन इन् स्टडिङ्ग् और् एञ्जायिङ्ग् द काव्यास् एण्ड् शास्त्रस् द लिटरेचर् एण्ड् द शास्त्रस् द सैन्सस् सो केषां कालः गच्छति धीमताम् सो इण्टेलिजेण्ट् पीपल् स्पेण्ड् देर् टैम् इन् एञ्जायिङ्ग् काव्यास् एण्ड् शास्त्रस् इत्यर्थः वाक्यस्य सो धीमतां कालः काव्यशास्त्र विनोदेन गच्छति इत्यर्थः
धन्यवादः
सो इदम् अयं तु वस्तुतः श्लोकः अस्ति सो काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् व्यसनेन तु मूर्खाणां निद्रया कलहेन वा. सो फॉर फूल्स, फूल्स स्पेंड इट इन व्यसन, बैड हैबिट्स और एडिक्शन, निद्रया, स्लीपिंग और कलहेन, क्वारलिंग. सो इंटेलिजेंट पीपल स्पेंड इट इन द स्टडी ऑफ काव्य एंड शास्त्र. मूर्खाणां कालः तु व्यसनेन कलहेन निद्रया वा गच्छति इति श्लोकः, श्लोकस्य भागः एषः. सो कालः गच्छति, केन गच्छति अथवा कथं गच्छति. सो उभयं साधु काव्यशास्त्रविनोदेन गच्छति. केषां कालः, धीमतां कालः, धीमान्, धीमत् मीन्स् इण्टेलिजेण्ट् पीपल्. सो उभयं शक्यते. अग्रिमं वाक्यम् एनिबडि एल्स्? महालक्ष्मी,
नमस्ते. नमस्ते,
वदतु वदतु.
क्रियापदम् अनुभोक्तव्यम्. कीदृशम् अनुभोक्तव्यम्? अवश्यम् अनुभोक्तव्यम्. कम अनुभोक्तव्यम्?
कर्म.
किम अनुभोक्तव्यम्? कर्म अनुभोक्तव्यम्.
अनुभोक्तव्यम्.
कीदृशं कर्मं? कृतं कर्म. कीदृशं कृतं? शुभं अशुभं?
शुभाशुभं कृतं कर्म अवश्यं अनुभोक्तव्यम्. धन्यवादाः, सम्यक्. सो अवश्यम् इत्यत्र तु कथम् अनुभोक्तव्यम्? अवश्यम्, अवश्यम् मीन्स् निश्चयेन, सर्टेन्लि, मस्ट् डेफिनेट्लि. कः अर्थः? अनुभोक्तव्यम्, मस्ट् बि एक्स्पीरियन्स्ड्, यु केनाट् एस्केप् इट्. अवश्यम् अनुभोक्तव्यम्. किम् अनुभोक्तव्यम्? कर्म, अ डीड्. कीदृशं कर्म? कृतं कर्म, अ डीड् विच् इस् डन्. सो पुनः कीदृशं कृतं? शुभाशुभं कृतं कर्म. सो अ डीड् विच् इस् डन्, वेदर् इट् इस् शुभ आर् अशुभ. सो वेदर् यु डू अ गुड् डीड् आर् अ बेड् डीड्, यु हेव् टु एक्स्पीरियन्स् द फल आफ् इट्. सो यु केनाट् एस्केप् द कर्मफल इत्यर्थः. कृतं शुभाशुभं कृतं कर्म अवश्यम् अनुभोक्तव्यम् इत्यर्थः. सो अत्रापि अनुभोक्तव्यम् इति कृदन्तम्, बट् लैक् द भूतकृदन्त, द तव्यत् अण्ड् अनियर् आर् आल्सो यूस्ड् एस् द क्रिया इट् सेल्फ्. इन्स्टेड् आफ् सेयिङ्ग् अनुभोक्तव्यं भवति, तदपि शक्यते. सो वी केन् यूस् इट् एस् द क्रियापद. अनुभोक्तव्यं, किम् अनुभोक्तव्यं? कर्म, कर्म इति नकारान्तं नपुंसकलिङ्गं. कर्म, कर्मणि, कर्माणि. सो कर्म अनुभोक्तव्यम्. कीदृशं कर्म? कृतम्. सो पुनः कीदृशं? शुभाशुभं कृतं कर्म अवश्यम् अनुभोक्तव्यम्. ओके, नेक्स्ट् वन् किशोर्.
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः. क्रियापदम् उज्यन्ति,
क्रियापदम्
केन
सिद्ध्यन्ति?
केन सिद्ध्यन्ति? उद्यमेन सिद्ध्यन्ति. काः सिद्ध्यन्ति? कार्याणि सिद्ध्यन्ति.
कानि सिद्ध्यन्ति?
कानि सिद्ध्यन्ति? कार्याणि सिद्ध्यन्ति. कानि न सिद्ध्यन्ति? मनोरथैः न सिद्ध्यन्ति.
सो हियर् वी हेव् टु अस्यूम् द प्रेसेन्स् आफ् सिद्ध्यन्ति फार् न आल्सो. सो सिद्ध्यन्ति, न सिद्ध्यन्ति. सो कानि कार्याणि सिद्ध्यन्ति? केन सिद्ध्यन्ति? उद्यमेन सिद्ध्यन्ति. कैः न सिद्ध्यन्ति? मनोरथैः न सिद्ध्यन्ति. ओके, सो उभयथापि तत्र सिद्ध्यन्ति इत्यस्य अन्वयः कर्तव्यः. सो कार्याणि उद्यमेन हि सिद्ध्यन्ति. हि इस् एन् अव्यय, which is just certainly ityarthah. So tasya tyagah kartum shakyate evam anvayakramena. So it is not directly related, it is just for emphasis. So udyamena hi siddhyanti manorathaihi na siddhyanti. So it karyani, so works or tasks will be successful udyamena, by effort, and manorathaihi na siddhyanti, not by just dreaming or desires about it. So antimaha, antimam vakyam.
Namaste.
Okay.
Kriyapadam upakarnam yukta.
Na yuktam.
Na yukta. Kim na yuktam upakarnam na yukta. Kena yuktam vannina yukta.
Kada na yuktam pradipte.
Kada na yukta. Pradipte na yukta. Na yukta. Kutra
kasminna
kasmin pradipte vannina, vannina means by kena, right? By fire.
Vannina is kena, so grihe pradipte.
Grihe pradipte kena yuktam vannina yuktam na upakaranam yuktam na upakaranam yuktam
na yuktam iti kriyapadam, not right, does not fit ityarthah na yuktam ityasya. So yukta is that which fits, that which deserves to be done. So na yuktam, so something that is not right. So kim na yuktam kupakhananam na yuktam, so digging a well iti the digging a well is not right. Kada na yuktam, when is it not right? Pradipte, when it is burning. Pradipta is burning. Kasmin pradipte, when what is burning? Grihe pradipte. So this usage we will see later. It is called Sati Saptami usage. So when the house is burning, kena pradipte, burning with what? Vanhina pradipte, burning with fire, right? So na yuktam kupakhananam na yuktam. So kada na yuktam pradipte na yuktam, kasmin pradipte grihe pradipte, kena pradipte vanhina pradipte. So abhyasah krutah samyak. So deliberately the last few sentences were slightly complicated. It is no problem at all if you are not able to resolve it right now. So kevalam udaharanartham dattam. So gachata kalena yatha yatha abhyasam kurvanti tada spashtata bhavati katham karaniyam iti. So good attempt. There are a few questions here. Pradipte means fire. Pradipte does not mean fire. Pradipte is lit up. The literal meaning of pradipta is lit up. So deepi rajato. So lit with fire. So lit with what? With fire. Okay. So pradipta ityasyaiva fire ityarthah nasti. So kupakhananam ityapi kriyapadam va iti. It is a kriyapada, but it is a subsidiary kriyapada. So there are multiple kriyas. All kridantas indicate some kriya. So it is usually you have to find out which is the main kriya and which is the subsidiary kriya. Atayeva parasparam anvayah kriyate. So the anvaya is to understand what is the main kriya and what are the subsidiary kriya. So tadeva anyatrapi ekaha prashnaha asti. So dharmo rakshati rakshitaha ityatra rakshitaha iti katham visheshanam bhavati kridantam kila iti. So Again, all kridantas are visheshana. Okay, so visheshana as in it is a kridanta indicates kriya in the form of a dravya, you know. I mean, for example, when I say gatavan, ramaha gatavan, so ramaha unnataha ityatra yatha unnataha iti ramasya visheshanam. Evam ramaha gatavan ityatra api gatavan iti ramasya visheshanam. They are both in the same vibhakti, prathama vibhakti. Kidrishaha ramaha gatavan ramaha ityeva vastutaha kartavya. Okay. So we will understand it more when we study the kridantas. For now, we'll take it if there is a bhuta kridanta, that is gatavan gatavati or gataha, or these tavyat aniyar, kartavyam karaniyam, we can treat them as kriyapadas. Pradipte iti saptami vibhakti. तत्र द्वादशे वाक्ये काव्यशास्त्र विनोदेन इत्यत्र सो काव्यशास्त्र इति विशेषणं वा इति नो काव्यशास्त्र विनोदेन इज अ सिंगल वर्ड ओके सो यू कैन नॉट डू विशेष यू कैन नॉट स्प्लिट काव्यशास्त्र सेपरेटली काव्यशास्त्र विनोदेन इति एकमेव पदम् धीमताम कालः इत्यत्र फॉर इंटेलिजेंट पीपल नो धीमताम कालः द टाइम ऑफ इंटेलिजेंट पीपल गोज बाय द एंजॉयमेंट ऑफ काव्यस एंड शास्त्र सो धीमताम कालः सो दैट इज व्हाई वी हैव द षष्ठी विभक्ति सो अग्रे गच्छामः सो इवन दो द Punaravartana did take some time. It is useful and it is required in the initial classes because that is where we get a real understanding of what is happening. Okay. So, yada aham vadami sarvam samyak iti bhasate, yada bhavantaha likhanti tada sandehaha bhavanti, ataha eva charcham api kurmaha chet spashta स्पष्टता भवति सो अग्रे गच्छामः अन्ये प्रश्नाः सन्ति चेत् अन्ते वर्गस्य अन्ते स्वीकुर्मः अथवा यू केन् आस्क् ड्यूरिङ्ग् by emails or something, or if there is time at the end of the class, we can take a few questions. So, adhyatanam patham sinsit pathamaha. So, asmin varge, maya sintitam purnam shakyate va, shlokasya adhyayanam katham kriyate iti pashyamaha, tasya abhyasam kurmaha, samayaha sticet, prahelikam laukikanyayam cha pashyamaha. So the focus of this class will be on the shloka. Yatavarge vayam vakyasya anvayaha katham kriyate iti jnatavantaha. Evameva shlokanam vishaye api kriyate. Tatra shlokaha ityukte api vakyameva. Tatra api evameva kriyate. Tatha api shlokasya adhyayane kashchana kramaha. Okay. So there is an order in which the shlokas are studied. So tena kramena jani maha chet. अर्थस्य अवगमनं सम्यक् भवति परस्पर पदानां विषये स्पष्टता भवति बहु ज्ञानस्य वर्धनमपि भवति वस्तुतः पूर्वतनकाले श्लोकानां अध्ययने अयमेव क्रमः आश्रियते स्म सो जस्ट् स्टडीङ्ग् वन् सर्ग आफ् अ काव्य इन् दिस् आर्डर् इन् डीटेल् विल् गिव् यू एक्स्ट्रीम्लि गुड् grounding in the fundamental grammatical aspects. Okay. So, vyakaranam shanam vishaye, kavyam shanam vishaye, alankaraha chanda sarvasyapi vishaye, श्लोकस्य अध्ययनेन अभ्यासः भवति. इट् इस् द मोस्ट् प्राक्टिकल् वे आफ् स्टडीङ्ग् द लाङ्ग्वेज्. सो कथं क्रियते क्रमशः अध्ययने इति चेत्, एकः श्लोकः अस्ति चेत् आदौ पदच्छेदः अथवा पदविभागः क्रियते. सो तत्रैव सन्धिज्ञानम् अपि भवति. सो द फस्ट् थिङ्ग् वेन् यु हाव् द श्लोक, सो आदौ तु श्लोकस्य उच्चारणं क्रियते. श्लोकं श्रुत्वा तस्य उच्चारणं सम्यक् करणीयं, सः प्रथमः अंशः. ततः श्लोकस्य अध्ययनम् इति यदा कुर्मः, तत्र प्रथमं भवति पदविभागः, सन्धिः. सो वि स्प्लिट् द वर्ड्स् आफ् द श्लोक. सो एतत् कर्तुं सन्धिज्ञानम् अपि अपेक्षते. सो सन्धि, इफ् वि नो द सन्धि, द रूल्स् आफ् सन्धि, so we will know the individual words of the shloka. Shlokasya padanam prithak jnanam bhavati. Tataha samanyaha arthaha. So yada prithak padani jnayante, tesham padanam arthaha kaha iti jnatva, shlokasya samanyaha arthaha, at least the superficial meaning or the outline of the meaning jnatavyam. यतोहि अर्थं विना प्रश्नादिकं कर्तुं न शक्यते. तत् अभ्यासे भवद्भिः अनुभूतं स्यात्. यदि वाक्यस्य अथवा पदानाम् अर्थः न ज्ञायते तर्हि परस्पर अन्वयः कर्तुं न शक्यते. सो यु विल् नाट् बि एबल् टु रिलेट् इट् अन्लेस् यु हाव् अट्लीस्ट् एन् ऐडिया आफ् वाट् इट् मीन्स्. अतः सामान्यार्थः ज्ञातव्यः. ततः वाक्यस्य विश्लेषणम्, यथा क्रियापदं किमस्ति, अन्यानि पदानि, अन्येषां पदानां का विभक्तिः अस्ति इति ज्ञात्वा, प्रथमाविभक्तिपदानि सर्वाणि एकत्र, द्वितीयाविभक्तिपदानि एकत्र इति विश्लेषणं करणीयम्. पूर्वतनस्तरे एतत् सर्वं कृतमस्ति परिचयवर्गे. सो वाक्यस्य विश्लेषणम्, एतत् क्रियापदम्, एतानि पदानि प्रथमाविभक्तौ सन्ति, एतानि द्वितीयाविभक्तौ. सो दट् विल् हेल्प् यू ब्रिङ्ग् टुगेदर् क्लस्टर्स् आफ् रिलेटेड् वर्ड्स्. यथा मया उक्तम्, इदानीं पदत्रयं द्वितीयाविभक्तौ अस्ति चेत् एकं विशेष्यं भवति, अन्यद्वयं विशेषणं भवति सामान्यतः, अथवा दे कुड् बि इण्डिपेण्डेण्ट् कर्म. सो एतत् कृत्वा अनन्तरम् अन्वयरचना अस्माभिः दृष्टं. प्रश्नं पृष्ट्वा, क्रियापदस्य विषये प्रश्नं पृष्ट्वा तस्य उत्तरं दद्मः. तदैव प्रतिपदार्थः, यदा एकैकं पदं स्वीक्रियते तस्य कः अर्थः, वाट् इस् द एक्साक्ट् मीनिङ्ग् आफ् दट् वर्ड् इत्यपि ज्ञायते. तदनन्तरं व्याकरणांशाः ज्ञातव्याः. यदि तिङन्तमस्ति, कः धातुः, लकारः, पुरुषः, वचनम्, आरम्भिकस्तरे तावता अलम्. एवं सुमन्तमस्ति चेत् किम् अन्तम्, लिङ्गं, वचनं, विभक्तिः. ततः अग्रिमस्तरेषु, सो इन् अड्वान्स् क्लासेस् यु केन् अनलैज् आल् द ग्रामेटिकल् आस्पेक्ट्स्. कः समासः, कः कृत् प्रत्ययः, कः तद्धितप्रत्ययः, व्याकरणविशेषाः सन्ति वा, कोशः. So using of a kosha is very very useful in studying. Tena bahunam padanam jnanam bhavati. So etat sarvam api kartum shakyate. Tataha agrimastare alankaraha asti chet kaha alankaraha, kim vrittam chandaha, what is the meter ityadi jnatva. Tataha vyakhyanataha visheshamshaha, samanyataha asmabhihi adhyayanam, तत्तु काव्यानां वा भवतु, रामायणं, महाभारतम् इत्यादि वा भवतु, शास्त्रं, शाङ्करभाष्यम् इत्यादि वा भवतु, व्याख्यानस्य साहाय्येनैव अध्ययनं क्रियते. अतः व्याख्याने विशेषेण किमुच्यते इत्यपि ज्ञातव्यम्. सो दिस् फार्म्स् द कम्प्लीट् स्टडी आफ् अ श्लोक. सो इदानीं यदि रघुवंशम् इति काव्यं स्वीकुर्मः, अथवा रामायणं स्वीकुर्मः, भगवद्गीतां स्वीकुर्मः, सो अनेन क्रमेण पूर्णशः अध्ययनं कर्तव्यम्. सो इफ् वि गो थ्रू आल् दीस् स्टेप्स्, सो फस्ट् आफ् आल् वील् अण्डर्स्टाण्ड् द श्लोक वेरि वेल्, आल्सो the language, the grammar, everything will improve very well. Asmin stare purnam na kurmaha, idanim king kurmaha, asmin varge, adau panchanam amshanam, padavibhagaha sandhihi. Sandhishu swarasandhihi, purvameva adhitaha. So vyanjana sandhihi, visarga sandhihi, shiksha pathyakrame asti. Ataha sarvesham sandhinam jnanam shiksha stare bhavati. So you should be able to split any word by the time you are through with shiksha. So, samanyah arthah, vakyasya vishleshanam kriyapadam prathama vibhaktihi ityadi. Anvaya rachana, so the method which we learned last class, so we will apply it to a few shlokas. Pratipadarthah katham kriyate iti janimaha. Vyakarana amsheshu sarvan amshana janimaha. Kevalam tingantam subantam. Mukhyataha lakaraha purushaha vachanam. Evam lingam vibhaktihi vachanam. So, etavat asmin stare kurmaha. So, as you move on to advanced level, we will learn. Yatha agrima stare kovide samasasya parichayaha bhavati, tada samasaha jnayante. Evam krudanta tadhita agre agre anyesham api amshanam adhyayanam kartum shakyate. Asmin stare kevalam tingantam subantam ityetayoho adhyayanam kurmaha. Tatra ekam saralam shlokam svikritya. Katham kriyate iti ekavaram pashyamaha. Shlokaha bahu prasiddhah asti. Aham pathayami anuvadantu ekavaram. Purvameva jnataha syat. So if you do not know, you can just repeat it. Paropakaraya phalanti vrikshaha. Paropakaraya vahanti nadyaha. Paropakaraya duhanti gavaha. Paropakarartham idam shariram. Okay. So, I am shloka asti. So, prathamaha amshaha asti. Padavibhagaha sandhi purvakam. So, padavibhagaha dvedha kartum shakyate. So, sandhi, you split individual words. Within a word, if it is a samasta pada, knowing the component words. Tadati mukhyam bhavati artha jnanartham. Artham jnatum, even if we do not know the samasa. So, kim kim padam asti iti jani mahachet artha jnanam bhavati. Yatha paropakaraya iti ekam padam. Tatra para upakaraya. So artha jnayate upakaraha help, para others, helping others. Iti arthaha spashtaha bhavati. Paropakaraya. Para upakaraya. Tatra gunasandhihi asti. A plus U is O. Gunasandhihi adhitaha purvam. So, paropakaraya phalanti vrikshaha. Paropakaraya, para upakaraya. So, a hyphen indicates that they are not two separate words. So, within a single word, there are two components. Samasta pada. So, para upakaraya vahanti nadyaha. Para upakaraya, paropakaraya. Duhanti gavaha paropakarartham para upakarartham idam shariram. So atra idam shariram anusmaraha asti. Okay. So vastataha idam iti makaraha. So when makara is followed by any consonant, it becomes an anusvara. Okay. So that is called anusvara sandhihi. Shiksha tare agre patishyamaha saha anusvara sandhihi. It is very common. Okay. So wherever you have a consonant following makara, makarasya anantaram vyanjanam astiche anusvaraha bhavati. So if there is a swara, you will not have anusvara. Yatha paropakarartham इदम् अग्रे इकारः अस्ति, इकारः स्वरः, अतः अत्र अनुस्वारः न भवति. सो यु विल् नाट् हाव् एन् अनुस्वार इफ् द फालोयिङ्ग् लेटर् इस् अ वोवेल्. यु शुड् नाट् रैट् अनुस्वार, अनुस्वारस्य लेखनं दोषाय. यदि अग्रे स्वरः अस्ति तर्हि मकारः एव लेखनीयः, यदि अग्रे व्यञ्जनम् अस्ति तर्हि अनुस्वारः भवति. एतावन्ति पदानि सन्ति श्लोके. सो इट्स् वेरि सिम्पल्, देर् इस् नाट् मच् सन्धि. सो पदविभागः ज्ञातः, सन्धिः अपि ज्ञातः. सो अग्रे किं सामान्यः अर्थः. सो वाट् इस् द मीनिङ्ग्? श्लोकस्य अर्थः प्रायेण सर्वैः ज्ञायते. वृक्षाः परोपकाराय फलन्ति. सो वृक्षाः ट्रीस् फलन्ति, दे बेर् फ्रूट्स् फार् अदर्स्, फार् हेल्पिङ्ग् अदर्स्. दट् इस् दे डु नाट् ईट् द फ्रूट्स् देम्सेल्स्, सो फार् हेल्पिङ्ग् अदर्स्. नद्यः परोपकाराय वहन्ति, रिवर्स् फ्लो फार् हेल्पिङ्ग् अदर्स्. गावः परोपकाराय दुहन्ति, सो कौस् दे गिव् मिल्क् और् प्रोड्यूस् मिल्क् फार् परोपकार. सो दीस् त्री आर् दृष्टान्त उदाहरणम्. एवमेव इदं शरीरं, दिस् बाडि, अस्माकं देहः अपि परोपकारार्थम्, सो अन्येषां साहाय्यार्थमेव अस्ति इति सामान्यः अर्थः. सो इदानीं वाक्यानि पश्यामः. सो क्रियापदं किमस्ति? अत्र फलन्ति, वहन्ति, दुहन्ति इति क्रियापदानि सन्ति. सो आल् दीस् आर् क्रियापद तिङन्तानि सन्ति. सो एकं तिङन्तं चेत् एकं वाक्यं निश्चयेन भवति. सो प्रथमाविभक्तौ कानि पदानि सन्ति? सो वृक्षाः, नद्यः, गावः, परोपकारार्थम् इदं शरीरम्. आल् दीस् वर्ड्स् आर् प्रथमाविभक्ति. सो वृक्षाः, नद्यः, गावः, इदं शरीरं परोपकारार्थम्. सो सर्वमपि प्रथमाविभक्तौ अस्ति. चतुर्थी विभक्तिः अस्ति परोपकाराय. सो तावदेव क्रियापदानि सन्ति, प्रथमाविभक्तौ पदानि सन्ति, चतुर्थी विभक्तौ पदमस्ति. सो देर् इस् नो अदर् वर्ड्, वी हेव् कवर्ड् आल् वर्ड्स्. सो अग्रे अन्वयरचना करणीया यथा अस्माभिः दृष्टं तथा. सो प्रथमं क्रियापदमस्ति फलन्ति. सो फलन्ति इत्यस्य कः अर्थः? फलानि यच्छन्ति, सो दे बेर् फ्रूट्स् और् दे गिव् फ्रूट्स् इत्यर्थः. अत्र अन्वयरचना क्रियते प्रतिपदार्थः. सो नोयिङ्ग् द एक्साक्ट् मीनिङ्ग् आफ् द वर्ड्. पुस्तके आङ्ग्लभाषया अर्थः भवति, वयं संस्कृतभाषया एव अर्थं ज्ञातुं प्रयत्नं कुर्मः. सो फार् ईच् वर्ड् वी विल् ट्रै टु रेप्रसेण्ट् इट् वित् अ डिफरेण्ट् संस्कृत वर्ड् ओन्लि. तेन संस्कृतस्य अभ्यासः, लेखनं सरलं भवति. सो फलन्ति, फलानि यच्छन्ति. के फलन्ति? वृक्षाः फलन्ति. वृक्षाः इत्यस्य कः अर्थः? वृक्षः, तरुः, पादपः इत्यादि बहूनि पदानि सन्ति. सो तरुः, तरुः, तरवः, पादपः, पादपौ, पादपाः. सो यत्किमपि पदम् उपयोक्तुं शक्यते. सो वृक्षाः, तरवः, पादपाः. किमर्थं फलन्ति? परोपकाराय. सो परोपकाराय इत्यस्य कः अर्थः? अन्येषां साहाय्यार्थम् इत्यर्थः. सो तरवः अन्येषां साहाय्यार्थं फलानि यच्छन्ति. सो द सेम् थिङ्ग्स्, द सेम् सेण्टेन्स्, परोपकाराय फलन्ति वृक्षाः. सो यु हेव् रेप्रसेण्टेड् इट् इन् संस्कृत इन् अ डिफरेण्ट् वे. सो अन्यानि पदानि उपयुज्य, सो सरलानि पदानि उपयोक्तुं शक्यन्ते. सो द्वितीयं वाक्यमस्ति वहन्ति. vahanti tyasya pravahanti. So they flow. Kaha vahanti nadyaha. Nadyaha vahanti. Nadi ityasya sarit. Iti paryaya padam asti. Sarit saritau saritaha. So nadyaha. Kimartham vahanti paropakaraya. Anyesham sahayartham. So taravaha anyesham sahayartham phalani yachanti. Saritaha nadyaha anyesham sahayartham pravahanti. Tritiyam vakyamasti duhanti. Duhanti ityasya kshiram yachanti. Ityasaha. They give milk. Kaha duhanti gavaha. Gauhu dhenuhu. So dhenuhu dhenu dhenavaha. Dhenavaha kshiram yachanti. Kimartham duhanti paropakaraya. Anyesham sahayartham. So antimam vakyam paropakarartham idam shariram. Atra kriyapadam nasti. Ataha asti ityasya adhyaharaha kriyate. So we assume the presence of the kriyapada asti. Kim asti shariram asti. Shariram dehaha. Kidrisham shariram idam shariram. So if you are referring to idam etat. So dehaha ityukte eshaha dehaha. Etat shariram. Idam shariram. Kimartham asti paropakarartham. Anyesham sahayartham asti. So evam anvayat rasana kriyate. So ante ekavaram anvayaha kriyate. So the complete anvaya now is vrikshaha paropakaraya phalanti. Nadyaha paropakaraya vahanti. Gavaha paropakaraya duhanti. Idam shariram paropakaratham asti. So this is the entire shloka with anvaya. Kaha arthaha. So whatever you gave as pratipadartha, teshameva yojanam kurmaha chet, saralaihi vakyaihi arthaha bhavati. Kim taravaha anyesham sahayartham phalani yachanti. Saritaha anyesham sahayartham pravahanti. Dhenavaha anyesham sahayartham kshiram yachanti. Smakam yeshaha dehaha api anyesham sahayartham asti. Iti tatparyam. So evam kramena likhamaha chet asmakam sviyaihi vakyaihi shlokasya artham lekhitum shaknumaha. So if we go word by word, so you can finally combine and write the meaning of the shloka in your own words in simple Sanskrit. Sarala vakyaihi shlokasya arthaha lekhitum shakyate. Kepi prashnaha santiva hetavata. So far, any question? Agre gachamaha. So idani vyakarana amshaha. Katham pashyamaha. Ekaikam padam svikritya. Paropakaraya. So paropakara iti padam. Hila? So akarantaha pullingaha paropakaraha. Iti Rama shabdavat. Chaturthi vibhaktau ekavachane rupam. Ramaya paropakaraya. Phalanti. Phalati phalataha phalanti. Phad iti dhatuhu parasmaipadi tasya latlakare prathamapurushe bahuvachanam. Sorry, there is a typing error. It is not ekavachana. It is bahuvachana. Phalati phalataha phalanti. एवमेव क्रियापदस्य अभ्यासः अपि कर्तुं शक्यते. सो इवन् इफ् यु आर् नाट् रैटिङ्ग् इट् तस्मिन् समये फलति फलतः फलन्ति, फलति फलतः फलथ, फलामि फलावः फलामः. सो रूपस्य अभ्यासमपि कर्तुं शक्नुमः. सो वृक्षाः, सो वृक्षशब्दः अयमपि अकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ बहुवचनम्. वृक्षः वृक्षौ वृक्षाः. सो परोपकाराय वहन्ति. सो वह धातुः सः उभयपदी, अत्र तु परस्मैपदी रूपमस्ति वहन्ति इति. लट्लकारे प्रथमपुरुषे बहुवचनम्. सो वहति वहतः वहन्ति. नद्यः, नदी शब्दः ईकारान्तः स्त्रीलिङ्गः प्रथमाविभक्तौ बहुवचनम्. नदी नद्यौ नद्यः. दुहन्ति, दुह् इति धातुः विशिष्टः धातुः, सः अपि उभयपदी. दुहन्ति इति परस्मैपदरूपम्. उभयपदिनः परस्मैपदरूपमपि भवति, आत्मनेपदरूपमपि भवति. सो इदं परस्मैपदरूपं. लट्लकारः प्रथमपुरुषः बहुवचनम्. सो विशिष्टं क्रियापदम्. इट् इस् अ स्पेशल् क्रियापद. इट् इस् नाट् दुहति दुहतः दुहन्ति. दोग्धि दुग्धः दुहन्ति इति रूपम्. दोग्धि दुग्धः दुहन्ति. धोक्षि दुग्धः दुग्ध. दोह्नि दुह्वः दुह्मः. सो एवं क्रमेण गच्छामः चेत् विशिष्टक्रियापदानामपि परिचयः श्लोकस्य अध्ययनसमये एव भवति. पृथक्तया पठनीयम् इति नास्ति. एवं यत्र यत्र प्रसङ्गः भवति, सो यु शुड् जनरलि हाव् द शब्दमञ्जरी एण्ड् धातुमञ्जरी वित् यु. सो यदा किमपि पदं भवति झटिति तस्य तत् पठामः चेत्, सो द्वित्रवारं पठामः चेत् तत् स्मरणे तिष्ठति. सो परोपकाराय दुहन्ति गावः. गावः गोशब्दः, ओकारान्तः स्त्रीलिङ्गः प्रथमाविभक्तौ बहुवचनम्. गौः गावौ गावः. सो परोपकारार्थम्. सो अकारान्तः नपुंसकलिङ्गः, शरीरम् इत्यस्य विशेषणम्. अतः नपुंसकलिङ्गे शब्दः प्रथमाविभक्तौ एकवचनम्. फलशब्दवत् फलम् इति वत् परोपकारार्थम्. इदम्, सो मकारान्तः नपुंसकलिङ्गः सर्वनामशब्दः. इदम् इत्येव प्रातिपदिकम्. सो मकारान्तः नपुंसकलिङ्गः सर्वनामशब्दः प्रथमाविभक्तौ एकवचनम्. सो इदम् इमे इमानि इति रूपाणि भवन्ति. शरीरम्, शरीरम् अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ एकवचनम्. सो एव्री वर्ड् इफ् वी स्टडी लैक् दिस् फार् अट्लीस्ट् 50 श्लोकास् योर् शब्दज्ञान एण्ड् धातुज्ञान वुड् हेव् इम्प्रूव्ड् कन्सिडरबलि. सो परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम्. सो एवं कुर्मः चेत् श्लोकस्य अर्थः, श्लोके प्रति पदं यः अर्थः, सर्वमपि स्पष्टं ज्ञायते. यदा श्लोकं वदामः तदा सम्पूर्णम् अवगतम् इत्यर्थः. सो प्रश्नाः सन्ति वा? महेश भगिनी प्रश्नः अस्ति वा?
नास्ति नास्ति.
अस्तु, तर्हि अन्यस्य श्लोकस्य प्रयत्नं कुर्मः. सो केन् यू आल् ट्रै द डिफरेन्ट् स्टेप्स्? सो कृपया हस्तम् उन्नयन्तु. सो आदौ श्लोकं पाठयामि, अनन्तरं अग्रे. सो प्रसिद्धः श्लोकः विष्णु सहस्रनाम स्तोत्रस्य पीठिकायाम् अस्ति. व्यासं वसिष्ठ नप्तारम् शक्तेः पौत्रमकल्मषम् पराशरात्मजं वन्दे शुकतातं तपोनिधिम् अयं श्लोकः. सो अस्य पदविभागः आदौ कर्तव्यः. शेखर
नमस्ते. व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषं
पौत्रम्
अकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं.
सम्यक्. सो पृथक् पदानि दृष्टानि. समस्त पदानि कर्तुं शक्यन्ते वा? व्यासं
व्यासं किं वक्तुमर्थं व्यासः इति अकारान्तपुंलिङ्गपदम् अस्तु. वसिष्ठस्य वसिष्ठ नप्तारं वसिष्ठस्य नप्तारं
वसिष्ठ नप्तारं
नप्तारम्
इति एकं पदं, नप्तारम् इति अन्यत् पदं, शक्तेः
पौत्रम् अकल्मषम्
अकल्मषम्
पराशर आत्मजम्
पराशर आत्मजम् सवर्णदीर्घसन्धिः पराशर आत्मजम् पराशरात्मजम्
वन्दे शुकतातम् शुकतातम्
शुकतातम्
तपोनिधिम् तपः निधिम्
तपः निधिम् विसर्गसन्धिः तपोनिधिम्. सम्यक्. सो एतानि पदानि सन्ति. सो व्यासम् व्यास वसिष्ठ नप्तारम् सामान्यः अर्थः इतः एव ज्ञायते. वसिष्ठः नप्ता नप्ता इस् ग्राण्ड्सन् ग्रेट् ग्राण्ड्सन् सो ग्रेट् ग्राण्ड्सन् आफ् वसिष्ठ. शक्तेः पौत्रम् द ग्राण्ड्सन् आफ् शक्ति. अकल्मषम् कल्मष इस् सिन् आर् सम् डर्ट्. सो अकल्मष इस् free from sin, very pure tyartha. Parashara atmajam, atmajaha putraha, parasharasya putraha, the son of parashara. Vande namami, I bow down. Shuka tatam, tata shabdasya samskrite pita ityartha, so father. So shukasya tatam, the father of shuka. Tapo nidhim, tapaha is penance, nidhi receptacle of penance, who has performed a lot of penance. Iti shlokasya samanyaha arthaha. Vedavyasasya paramparayaha atra namanam kriyate. So brahmarshihi vasishthaha, vasishthasya putraha shaktihi, shaktehe putraha parasharaha, parasharasya putraha vyasaha, vyasasya putraha shukaha. So vyasam वसिष्ठ नप्तारम् शक्तेः पौत्रम् पराशर आत्मजम् शुक तातम्. सो इट् इस् डिस्क्रैबिङ्ग् द रिलेशन्. सो सामान्यः अर्थः ज्ञातः श्लोकस्य. इदानीं वाक्यस्य विश्लेषणम्. क्रियापदं किम्, का विभक्तिः पदानाम् इति. सुरेश क्रियापदं किम्?
व्यासं पदं
क्रियापदं
क्रियापदम् अत्र वन्दे
वन्दे इति क्रियापदम्. सो द्वितीया विभक्तौ कानि पदानि सन्ति?
अत्र व्यासं
नमस्कारम् न श्रूयते किञ्चित् उच्चैः वदतु. व्यासं वसिष्ठनप्तारम्
शक्तेः पौत्रम्
पौत्रम् शक्तेः पौत्रम्
अकल्मषम् आत्मजम्
पराशरात्मजम्
सुखतातम् तपोनिधिम्
तपोनिधिम्. सो मोस्ट् आफ् द वर्ड्स् इन् द श्लोक आर् इन् द्वितीया विभक्ति. व्यासं वसिष्ठनप्तारम् पौत्रम् अकल्मषम् पराशर आत्मजम् शुकतातम् तपोनिधिम्. सो आल् आफ् देम् आर् इन् द्वितीया विभक्ति. सो ओन्ली वन् वर्ड् इस् लेफ्ट् विच् इस् शक्तेः. का विभक्तिः? Shashti. Sorry, there's a lot of disturbance. So background this. So Shashti Vibhakti. You can type in the answers, no issue. So Shaktehe. Shaktehe Pautram. So Shashti Vibhaktav Shaktehe iti padam. Right. So we have covered all the words. Vande iti kriyapadam. Dvitiya Vibhaktav Etavanti Padani Santi. So Vyasam iti Visheshyam. Anyat Sarvam api Tasya Visheshanam. Shashti Vibhaktav Shaktehe iti Ekam Padam Asti. Agre. Agrimam. अग्रिममस्ति अन्वयरचना प्रतिपदार्थः. सो वी हेव् टु डू द अन्वय एण्ड् डू द प्रतिपद अर्थ. निर्मला, यू हेव् टु अन्म्यूट् युवर् सेल्फ्, क्लिक् आन् द मैक्रोफोन् वन्स्. वदतु. वदतु महोदय. पुनः म्यूट् अभवत्, न श्रूयते.
श्रूयते वा?
इदानीं श्रूयते.
नमस्ते. व्यासं वसिष्ठनप्तारम् अहं व्यासं
क्रियापदं क्रियापदं
वन्दे अहं वन्दे
वन्दे इत्युक्ते नमामि इत्यर्थ.
नमामि नमामि. व्यासं वसिष्ठनप्तारः कः वन्दे? अहं व्यासम्
अहं वन्दे
अहं वन्दे
अहं वन्दे
वन्दे
अहं वन्दे अध्याहारः. सो ऐ बो डौन् अहं नमामि
अहं नमामि अहं वन्दे. Then, हम वन्दे.
कं वन्दे?
कं वन्दे व्यासं
व्यासं
वन्दे
कं वन्दे व्यासं वेदव्यासं
वेदव्यासं अहं नमामि अहं नमामि. अनन्तरं कीदृशं व्यासं वन्दे? कीदृशं व्यासं वन्दे? वसिष्ठनप्तारम्
वसिष्ठनप्तारम् कः अर्थः?
वशिष्ठस्य पौत्रः
प्रपौत्रः सम्यक् सो वशिष्ठस्य प्रपौत्रं वशिष्ठमहर्षेः प्रपौत्रं
वशिष्ठमहर्षेः प्रपौत्रं वन्दे अनन्तरं शुकतातं
अग्निमं पदे
शक्तेः पौत्रं
पौत्रं आदौ पौत्रं
पौत्रं शक्तेः पौत्रं
कस्य पौत्रं
शक्तेः पौत्रं
अग्रे किमस्ति शक्तेः पौत्रं
शक्तेः पौत्रं The screen is not very visible because of the yellow and white lettering.
Akalmasham.
So if you can just read it, I will just say it. Akalmasham is a visheshana. Akalmasham. Akalmasham visheshanam bhavati. Shukatatam.
Shukasya. Drisham. Akalmasham.
Akalmasham.
कीदृशं 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 सो पुनः कीदृशम् अकल्मषम् सो अकल्मषम् इत्यस्य पापरहितं शुद्धं
शुद्धं पापरहितं निर्मलं वटवर् अनन्तरं कीदृशं कम् इस् अगेन् यु हेव् टु से शुकतातं कीदृशं
पराशरात्मजम्
पराशरात्मजम् इस् पराशरस्य पुत्रः
पुत्रं
पराशरस्य पुत्रं
पुनः कीदृशं पराशरात्मजम् पुत्रम्
पुनः कीदृशं शुकतातं शुकस्य पुत्रः
शुकस्य
पुत्रः
तात
पिता शुकस्य पिता तातः शुकस्य पिता
पितरं
पितरं द लास्ट् वर्ड् इस्
तपोनिधिं
तपः हौ डु ऐ से दट्
ओके केन् यूस् अ सिमिलर् वर्ड् तपोनिष्ठं
तपोनिष्ठ
नो पर्याय एक्चुलि तपस् इस् तपस् सो तपोनिष्ठं
तपोनिष्ठस्य तपोनिष्ठं
तावदेव
सः व्यासः अहं वन्दे
तं व्यासम् अहं वन्दे कः अन्वयः वसिष्ठदत्तारं शक्तेः पौत्रं पराशरात्मजं शुकतातम् अकल्मषं तपोनिधिं व्यासम् अहं वन्दे इति अन्वयः सो दट् इस् द कम्प्लीट् अन्वय आफ् द श्लोक सो वी हव् ब्रॉट् टुगेदर् आल् द वर्ड्स् रिलेटिङ्ग् रिलेशन् सो नप्ता पौत्रः आत्मजः तातः एण्ड् देन् अकल्मषं तपोनिधिं सो कश्चित् प्रश्नं पृच्छति इस् देर् अ वे टु डिफ्रेन्शियेट् बिट्वीन् क्वालिटि आफ् अ पर्सन् एण्ड् हिस् फेमिली डीटेल् न तथा नास्ति सर्वमपि विशेषणमेव अर्थं ज्ञात्वा एव वयम् एतत् कीदृशम् इति वक्तुं शक्नुमः द्वितीयः प्रश्नः अस्ति अत्र कीदृशानि इति पृष्ट्वा सर्वाणि विशेषणानि वक्तुं शक्नुमः वा. कीदृशानि इति न, कीदृशं व्यासम् इत्येव प्रश्नः. सो एकवारमेव सर्वं वक्तुं शक्यते, वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् इति. किन्तु अन्वय अनेन क्रमेण अन्वयस्य किं प्रयोजनम्? प्रतिपदम् अवगन्तव्यम् इत्येव प्रयोजनम्. सो द मेन् पर्पस् आफ् डूयिङ्ग् दिस् होल् थिङ्ग् इस् टु मेक् श्योर् दट् वी हेव् अण्डर्स्टुड् ईच् इण्डिविजुवल् वर्ड्. अतः एव एकैकं पदं स्वीकृत्य तेषाम् अर्थस्य ज्ञानं प्राप्तुं प्रयत्नं कुर्मः. युगपद् वक्तुं शक्यते किन्तु तेन प्रयोजनं न सिद्ध्यति, अस्माकं प्रयोजनं न सिद्ध्यति. सो प्रश्नाः सन्ति चेत् विल् डू इट् अण्ड् कम्प्लीट् दिस्. सो अयम् अन्वयः. सो अर्थः कः? वसिष्ठमहर्षेः प्रपौत्रं, शक्तिमहर्षेः पौत्रं, पराशरमहर्षेः पुत्रं, शुकमहर्षेः पितरं, शुद्धं, तपोनिष्ठं, वेदव्यासम् अहं नमामि. सो दिस् थिङ्ग् ऐ वुड् रेकमेण्ड् दट् यु आल् प्राक्टिस्. तत्र प्रतिपदं यः अर्थः दत्तः, सो तदेव योजयित्वा एकं शुद्धं वाक्यं करणीयम्. सो तेन संस्कृतभाषायां लेखनस्य कौशलं वर्धते. प्रतिपदम् अर्थं ज्ञात्वा युक्त विभक्तौ, इन् द रैट् विभक्ति, यु हव् टु पुट् टुगेदर् टु मेक् अ कम्प्लीट् सेण्टेन्स्. इट् इस् द सेम् थिङ्ग्, यु हव् टु जस्ट् जायिन् देम् अण्ड् मेक् अ कम्प्लीट् सेण्टेन्स्. तेन स्वीयं वाक्यं रचयितुं अभ्यासः सम्यक् भवति. सो वी विल् सी अ फ्यू क्वेश्चन्स् हियर् अण्ड् देन् मूव् आन् टु द व्याकरण अंश. व्याकरण अंशानां विषये केचन प्रश्नाः सन्ति, तत्तु तत्र पश्यामः. सो हियर् अहम् अकल्मषं वन्दे इति वक्तुं शक्यते वा? यु केन् पुट् दट् अहम् एनिवेर्, यु केन् पुट् अट् द रैट् अट् द बिगिनिङ्ग् अहं वसिष्ठनप्तारं व्यासं वन्दे. सो तत्र तेन किमपि भेदः न भवति. सो नेक्स्ट्, केन् अकल्मषं बि अ रेफर् टु शक्ति इति प्रश्नः. अकल्मषम् इति शक्तेः विशेषणं भवति वा? न भवति. शक्तेः इति षष्ठी विभक्तौ अस्ति, अकल्मषम् इति द्वितीया विभक्तौ अस्ति. अतः शक्ति इत्यस्य विशेषणं न भवति, व्यासस्यैव विशेषणम्. सो अकल्मषम् इति, ओके, सो देर् इस् अ डिफरेण्ट् क्वश्चन्. सो अहम् अकल्मषं वन्दे इत्यत्र अकल्मषम् इति क्रियाविशेषणं भवति वा इति अन्यः प्रश्नः. सो केन् वि रिलेटेड् टु अकल्मषं वन्दे? सो ऐ बो डौन् टु हिम् विथौट् एनी सिन्. Well, theoretically you can do it, किन्तु अर्थस्य सामञ्जस्यं भवति वा इति द्रष्टव्यम्. सो मम नमस्कारः अकल्मषः इति अर्थः तदा भवति यदि सः अर्थः विवक्षितः वक्तुं शक्यते. सो ग्रामेटिकलि यु केन् डू इट्, किन्तु श्लोकं पश्यामः चेत् इट् अपियर्स् एस् अ विशेषण टु व्यास हिम्सेल्फ. आत्मज इत्यादीनां पदानाम् अर्थः कथं ज्ञायते? आत्मज इस् अ समस्तपद बट् इट् मीन्स् पुत्र. सो अगेन् यु हाव् द डिक्षनरीस्, यु हाव् कोशस्. सो यूसिङ्ग् देम् यु विल् डेवलप् युवर् वोकाबुलरी टु अण्डर्स्टाण्ड् न्यूर् अण्ड् न्यूर् वर्ड्स्. सो अभ्यासेनैव ज्ञायते सामान्य. सो वेगेन व्याकरणांशान् पश्यामः. So anybody wants to try the vyakarana amshas? So quickly, only the lakara and the vibhakti vasana aspects. So Maheshwari. Vyasam.
Aham na janami vyakarana amsha itukte kim vadami iti.
अन्तः वचनं विभक्तिः लिङ्गम्.
अस्तु, व्यासः,
व्यासम्,
व्यासाः, पुलिङ्ग शब्दः अकारान्तलिङ्ग शब्दः वशिष्ठः
विभक्तिः
द्वितीया विभक्तिः
वचनम्
वचनम् एकवचनम्
सो फार् एनी सुबन्त द स्टाण्डर्ड् फार्लिङ्ग अन्तलिङ्ग विभक्ति वचन सो अकारान्तः पुल्लिङ्गः द्वितीया विभक्तिः एकवचनम्
अस्तु
वसिष्ठनप्तारम्
वसिष्ठनप्तारम् अपि अकारान्तः पुल्लिङ्ग
नप्तृ शब्दः ऋकारान्तः नप्तृ इति ऋकारान्तः
ऋकारान्तः पुल्लिङ्ग एकवचनम्
द्वितीया विभक्तिः एकवचनम्
विभक्ति
नप्ता नप्तारौ नप्तारः नप्तारम् नप्तारौ नप्तृन् इति रूपम् सो ऋकारान्तः पुल्लिङ्गः नप्तृ शब्दः द्वितीया विभक्तौ एकवचनम् धन्यवादः give somebody else also so mahalakshmi
namaste
shakti
ikaranta pullingah shakti vibhakti ekavachanam
ha samyak so ikarantah pullingah so actually shaktih yada balam ityarthe upayujyate tada strilinga shabdah सो मम शक्तिः अस्ति इत्युक्ते सः स्त्रीलिङ्गशब्दः अत्र तु शक्तिः इति महर्षेः नाम सो इट् इस् द नेम् आफ् द सेज् अतः अत्र इकारान्तः पुल्लिङ्गः द्वितीय सोरी षष्ठी विभक्तौ एकवचनम् सो दिस् इस् अ टैपिङ्ग् एरर् प्लीज् इग्नोर् इट् शक्ति षष्ठी विभक्तेः एकवचनम् यथा हरिशब्दस्य हरेः हर्योः हरीणाम् एवं शक्तेः शक्त्योः शक्तीनाम् इति भवति पौत्रम्
पौत्रः एकवचनम् अकारान्तपुल्लिङ्गः एकवचनम्
विभक्तिः
द्वितीया विभक्तिः एकवचनम्
अकारान्तः पुल्लिङ्गः द्वितीया विभक्तिः एकवचनम् अकल्मषम्
द्वितीया विभक्ति अकारान्त नपुंसकलिङ्गम्
न पुल्लिङ्गमेव सर्वमपि व्यासस्य विशेषणम् अतः अकल्मषम् सो
अकारान्तपुल्लिङ्गः द्वितीया विभक्ति एकवचनम्
सम्यक् अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ एकवचनम् धन्यवादः स्वामिनाथ हा श्रूयते
अकारान्तः पुल्लिङ्गः द्वितीया विभक्ति एकवचनम्
अकारान्तः आत्मज इति अकारान्तशब्दः
वन्दे वन्दे परस्मै आत्मनेपदे एकवचनम् प्रथम उत्तमपुरुषः
सोरि
उत्तमपुरुषः
लकारः
भूतकालः सोरि
लकारः वर्तमानकालः एव सो वन्द धातुः आत्मनेपदी लट्लकारः उत्तमपुरुषः एकवचनम् सो वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे इति रूपाणि सो केनचित् पृष्टं पूर्वम् आत्मनेपद परस्मैपदज्ञानं कथं भवति इति न भवति इत्युक्ते धातुपाठं कोशं दृष्ट्वा एव ज्ञातव्यम् इट् इस् नाट् पासिबल् टु प्रिडिक्ट् विच् धातु इस् परस्मैपदी विच् इस् आत्मनेपदी अण्ड् विच् इस् उभयपदी यु शुड् रेफर् टु अ कोश or by practice, if you know the form, se vandate. So it is Atmanepadi. If it is Namami, it is Parasmaipadi. So Abhyasena Eva Jnayate, there is no other way to guess or to know whether a given dhatu is Atmanepadi or Parasmaipadi. So next, okay, there are only two more words. I'll go because it's there, what we know already. So Shukatatam Ityapi Akarantaha Pullingaha Jitiya Vibhaktau Ekavachanam Tapo Nidhim Ikarantaha Pullingaha Harishabdavate Jitiya Vibhaktau Ekavachanam. Okay. So Evam Vyakaranam Shaha Drishtaha Kalaha Gataha Kavya Shastra Vinodena Nataha Vayam Atmanam Dhimantaha iti pariganaitum shaknumaha, at least for this class. So, since we are running out of time, I'll stop here. Kadya prahelikava anye vishayahava adhyamastu agrimavarge pashyamaha. So, for today, I'll give two or three shlokas for exercise. Try to do this slowly. Mandam kurvantu. So, do it, take your time. But do it, practice it, so that you will gain confidence only if you sit and do it. Aham sarvam vaktum shaknomi, sarvam tatra bhavati, tadatu sarvam nyayate. Kintu yada kashchana shlokaha svayam kartavyaha, tada sandehaha bhavanti. Sandehaha bhavantu chinta nasti, doshaha bhavantu chinta nasti, prayatnaha karaniyaha. So that is the main thing. You have to put in effort to understand how it is done and how to do it. So with time, we will again discuss all those shlokas in the next class. So charchayam itopi avagamanam samyak bhavati parishkaraha api kartum shakyate kripaya prayatnam kurvantu grihe anenaiva kramena prayatnam kurvantu. Okay, so follow this step. So once you learn more, you can skip some of the steps or combine some of the steps and so on. But for now, it is good if you practice going by the steps. Idani atra samapayamaha. So if you have any questions, you can ask so others can leave. So I'll do the mangalam. So anantaram ye prashnan prashnam icchanti prachanti. So guru reva gatir guru meva bhaje guru naiva sahasminamo gurave na guroh paramam Shishurasmi Gurur Matirasti Gurau Mamapahi Guru. Vatra Mukhyam Prashnadvayam. Homework is sent by email. We don't send it by email. Homework will be uploaded in our website. So like we did last class. So if you log in to sanskritfromhome.in, so we'll upload the recording of this class and also the exercise for next class. The exercise you will have both PDF and Word document. So if you prefer, you can work in that and fill it there, or you can write it, do oral practice, whatever you wish. How to submit our homework? No need to submit, or maybe I should confess that I may not be able to look at, even if you send all those homeworks, I may not be able to look at it within this thing of 1 week. So you please have it with you. We will discuss the answers in the next class. So after that also, if you have questions, you can send it. And my request is, if somebody has written it, if you can make the corrections and send the answer sheet for last class, that is the answers which we discussed today, so I can upload it and it will be useful for others. So if you have either written it or typed it, so if you can make any corrections if required based on today's discussion and send it, it will be very useful for everybody. So kripaya preshayatu ye gata vargasya abhyasan likhitavantaha ityadi. So idanim anye prashnaha santi chet prichantu aham uttaram vadami datum prayatnam karomi. So somebody had asked that there is a question. Anybody? No? Okay, I think so. So, what is the font used to prepare the presentation. The font I use is called Shobhika. So Shobhika iti. If you just search in Google for Shobhika font, you will get it. Astu, dhanyavadaha. Agrimavarge, milamaha.